एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिना विद्यादेवी भण्डारिण प्रतिनिधिसभायाः सदस्यः संविधानस्य 67 धारायाः पञ्चमोपधारायाः अनुसारेण प्रधानमन्त्रिणे आधारं प्रस्तुतुम् आहूतो वर्तते। राष्ट्रपतिना भण्डारिणा नेपालस्य संविधानस्य 67 धारायाः पञ्चमोपधारायाः अनुसारेण प्रधानमन्त्रिणो नियुक्तेः प्रयोजनाय अद्य ज्येष्ठस्य 7 दिवसे सायं 5 यावत् प्रतिनिधिसभायां विश्वासस्य मतानां प्राप्तेः आधारं प्रस्तोतुम् नेपालस्य संविधानस्य 67 धारायाः द्वितीयोपधारायाः अनुसारेण प्रतिनिधिसभायाः सदस्यः आहूतोस्तीति राष्ट्रपतेः कार्यालयस्य सहायक प्रवक्त्रा केशव प्रसाद घिमिरेभिरेण गतसायं प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना संविधानस्य 67 धारायाः चतुर्थोपधारायाः अनुसारेण 30 दिनानामभ्यन्तरे प्रतिनिधिसभातो विश्वासस्य मतं प्राप्तव्यं सदपि सम्प्रति विकसितायां राजनैतिक परिस्थितौ संविधानस्य 67 धारायाः तृतीयोपधारायाः अनुसारेण संघटिताय वर्तमान सर्वकाराय विश्वासस्य मतानां प्राप्तेः सबलः राजनैतिकः आधारः न दृष्टः इति हेतो मार्गं प्रशस्तीकृत्य नवीन सर्वकारस्य संघटनार्थम् आह्वातुम् अनुरुद्धम् अस्तीति विज्ञप्तौ लिखितं वर्तते। राष्ट्रपतिना विद्यादेवी भण्डारिण ह्य अध्यादेशद्वयं क्रियान्वितमस्ति। नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः परामर्शे राष्ट्रपतिना भण्डारिण एतद् विक्रमाब्दियौ शपथ सम्बद्ध्याध्यादेशः कोविड 19 संकट व्यवस्थापनाध्यादेशश्च क्रियान्विताविति राष्ट्रपति कार्यालयस्य सहायक प्रवक्त्रा केशव प्रसाद घिमिरेभिरेण ह्य सायं प्रकाशितायां विज्ञप्तौ ज्ञापितमस्ति। नेकपा एमाले दलस्य स्थायि समितेः उपवेशेन सर्वकारः जनतायाः जीवन रक्षायाः कृते सर्वविधां न्यूनतां निवारयितुं परामृष्टो वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे पूर्वेद्यो उपविष्टे तस्मिन् उपवेशे नेपाल एमाले दलाध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना कोविड महामार्या वर्धमानस्य प्रकोपस्य एतस्य विरूद्धे सर्वकारेण विधीयमानानां प्रयासानां च विषये ज्ञापितमिति उपवेशस्य पश्चात् प्रवक्ता प्रदीप गेवाली अज्ञापयत। उपवेशेन सर्वकारस्य प्रयासाः अनुकूलाः सन्तीति निष्कर्षं प्रकाश्य कोविड महामार्याः विरूद्धे बाह्य सहयोगं संकलयितुं प्राणवायोः अत्यावश्यकौषधानां स्वास्थ्य सामग्रीणां च कामपि न्यूनतां निवारयितुं एकीकृत पद्धत्या कोविड विषाणोः विरूद्धे योधनाय आवश्यक वैधानिक संरचनायाः व्यवस्थां विधातुं च परामृष्टमिति प्रवक्ता गेवाली अवदत। उपवेशेन बागमती प्रदेशे सम्पन्ने राष्ट्रियसभा सदस्यस्य उपनिर्वाचने दलस्य निर्देशनस्य वैपरीत्येन दलस्य आधिकारिक प्रत्याशिनो विरूद्धे मतदायिनीं दलीय निर्णयनस्य अवज्ञाकारिणीं च प्रवृत्तिम् अत्यन्तं गभीरेण मत्वा प्रवृत्तिरेषा भर्षितेति दल प्रवक्ता गेवाली अगदत। एवमेव उपवेशेन दलस्य केन्द्रीय सदस्यस्य पूर्व सांसदस्य च योगनारायण यादवस्य निधनं प्रति दुःखम् अभिव्यज्य श्रद्धाञ्जलिः अर्पितो वर्तते। नेकपा माओवादी केन्द्रेण कोविड 19 नियन्त्रण निरोधनयोः कृते दलस्य सर्वाः समितिः परिचालयितुं निर्णीतं वर्तते। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन स्थायि समितेः उपवेशेन अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वे कोविड नियन्त्रण शाखां संघटय्य कोरोना संक्रमणस्य नियन्त्रणाय दलस्य सर्वां पंक्तिं परिचालयितुं निर्णीतमिति नेता वर्षमान पुनः अज्ञापयत। उपवेशेन जनप्रतिनिधिभ्यः केन्द्रस्य प्रदेशानां च निर्वाचित पदाधिकारिभ्यः दलस्य सदस्येभ्यश्च सहयोगं संकलय्य कोविड कोषं निर्मातुं च निर्णीतमस्ति। एवमेव उपवेशेन प्रभावकारी कार्यं न सम्पादितमिति तर्कयता कोविड 19 संकट व्यवस्थापन केन्द्रं निरस्य प्रधानमन्त्रिणो नेतृत्वे सर्वपक्षीयं सर्वदलीयं च संयन्त्रं निर्मातुं च अभियाचितमिति नेता पुन अज्ञापयत। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल कथयति नवीन सर्वकारस्य संघटनाय न्यूनतम दिनत्रयस्य समय प्रदातव्य। वरिष्ठ नेता पौडेल ह्य ट्वीटर सामाजिक सञ्जालस्य माध्यमेन राष्ट्रपतिना 24 घण्टानामपि समय मदत्वा संविधानस्य 67 धारायाः पञ्चमोपधारायाः अनुसारेण नवीन सर्वकार संघटन प्रक्रियायाः प्रारभणाय विहितम् आह्वानं संविधानं विघटय्य एतस्य परित्यागस्य यन्त्रम अस्तीति अभूच्छत। वरिष्ठ नेत्रा पौडेलेन वर्तमान अवस्थायां नेपाली जनतायाः 73 वर्षाणां त्यागेन अनि तस्य संविधानस्य संरक्षणात्मके प्रयासे सन्नद्धानि भवितुं सम्पूर्णानि राजनीतिक दलानि आहूतानि च सन्ति। सर्वोच्च न्यायालयेन रहित सांसदैः सप्तभिः मन्त्रिभिः कार्याणि न कर्तुं न कारयितुं च अन्तरिमादेशः प्रदत्तोऽस्ति। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबराभिदस्य एकल न्यायपीठेन रहित संसद सदस्यैः गृहमन्त्री रामबहादुर थापा, ऊर्जा मन्त्री टोपबहादुर रायमाझी, उद्योग वाणिज्य पूर्ति मन्त्री लेखराज भट्ट, नगरीय विकास मन्त्री प्रभु शाह, श्रम मन्त्री गौरीशंकर चौधरी, पेयजल मन्त्री मणि थापा, क्रीडा मन्त्री दावा लामा चेति जनैः मन्त्रिणाम रूपेण कार्याणां सम्पादनस्य निरोधनत्वेन अन्तरिमादेशः प्रदत्तोऽस्ति। संविधानस्य अष्टसप्ततितम्याः धारायाः अनुसारेण एकवारम् अधिकतमं शरणां मासानां कृते एव मन्त्री भवितुं शक्यते इति व्यवस्थायाः सत्त्वात् रहित संसद सदस्यानां पुनः मन्त्रिषु नियुक्तिः संविधान विपरीता स्थिति सर्वोच्च न्यायालयेन प्रदत्ते आदेशे उल्लिखितं वर्तते। बागमती प्रदेशे राष्ट्रिय सभायाः रिक्त सदस्यस्य उपनिर्वाचने स्वतन्त्र प्रत्याशी डाक्टर खिमलाल देवकोटा विजयी सम्भूतोऽस्ति। ह्य सम्पन्ने मतदाने डाक्टर देवकोटा विधेन 5588 मतानि एवं नेकपा एमाले दलस्य रामबहादुर थापा विधेन 14,144 मतानि प्राप्तानि आसन्। एवमेव नेपाल मजदूर किसान दलस्य कृष्णबहादुर तामाङ इत्यनेन 32,100 मतानि प्राप्तानीति निर्वाचन कार्यालयेन ज्ञापित। इति समाचारः।